मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलं पावनं पावनेभ्योऽपि हरिर्नामैव केवलं हरिर्नामैव केवलम् आब्रह्मस्तम्भपर्यन्तं सर्वं मायामयै जगत् सत्यं सत्यं पुनः सत्यं हरिर्नामैव केवलं हरिर्नामैव केवलं सगुरु सपिता चापि सा माता बान्धवोऽपि सः शिक्षयेचेत् सदा स्मर्तुं हरिर्नामैव केवलं हरिर्नामैव केवलं निःश्वासेन हि विश्वास कदा रुद्धो भविष्यति कीर्तनीयमतो बाल्याद्धरिर्नामैव केवलं हरिर्नामैव केवलं हरे सदा वसि तत्र यत्र भागवता जनाः गायन्ति भक्तिभावेन हरिर्नामैव केवलं हरिर्नामैव केवलम् अहो दुःखं महादुःखं दुःखात् दुःखतरं यतः काचार्थं विस्मृतं रत्नं हरिर्नामैव केवलं हरिर्नामैव केवलं दीयतां दीयतां कर्णो नियतां नियतां वचः गीयतां गीयतां नित्यं हरिर्नामैव केवलं हरिर्नामैव केवलं तृणीकृत्य जगत् सर्वं राजते सकलोपरि चिदानन्दमयं शुद्धं हरिर्नामैव केवलं हरिर्नामैव केवलम् इति श्रीकैवल्याष्टकं सम्पूर्णं हरिर्नामैव केवलं हरिर्नामैव केवलं हरिर्नामैव केवलम्।